एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। उनशताधिक द्विशततमे पृथ्वी जयन्ती राष्ट्रियैकता दिवसश्च ह्यो विभिन्नान् कार्यक्रमान् आयोज्य सभाजितः। अवसरेऽस्मिन् राष्ट्रपतिः विद्यादेवी भण्डारी नेपालैकीकरणस्य अभियानस्य नायकम् पृथ्वीनारायण शाहम् प्रति श्रद्धासुमनो व्यक्तवती। प्रधानमन्त्री केपी शर्मा ओली ट्वीट सञ्जालस्य माध्यमेन पृथ्वीनारायण शाहम् प्रति श्रद्धाञ्जलिम् सम्मानम् च अभिव्यज्य नेपाल राष्ट्रस्य एकीकरणे तस्य राज्ञः अतुलनीयम् योगदानम् अस्मरत। एवमेव नेपाली सेनया इयम् जयन्ती दिवसश्च विविधैः कार्यक्रमैः सह समायोजिता। गतदिने काष्ठमण्डपस्य चन्द्रागिरी दहचोक शिवपुरी सागा नगरकोटस्थ महादेव पोखरी प्रवृत्ति स्थानेषु विभिन्नाः कार्यक्रमाः आयोजिता इति नेपाली सेनायाः जनसम्पर्क सूचना निर्देशनालयो ज्ञापयति। अत्रान्तरे गोरखा काष्ठमण्डपैकीकरण मार्ग पदयात्रा सैनिक मुख्यालयम् प्राप्य समाप्ता वर्तते। गोर्खा जनपदात् पौषस्य एकविंशे दिवसे प्रारब्धायम् पदयात्रा धादिङ नुवाकोट जनपदम् प्राप्य रविवासरे हनुमद्वारम् आगता आसीत्। अस्य दिवसस्य अवसरे ह्य आयोजिते विविधानाम् राष्ट्रभाषाणाम् गीत कार्यक्रमे संस्कृति पर्यटन नागरिकोड्डयन मन्त्री भानुभक्त ढकालः अब्रवीत् राष्ट्रियैकतायाः सुदृढीकरणाय कला संस्कृत्योः महत्वपूर्णा भूमिका भवति। स्वास्थ्य जनसंख्या मन्त्री हृदय त्रिपाठी गदति कोरोना विरूद्धस्य टीकाकरणम् यथासमयम् प्रयोक्तुम् आवश्यक प्रक्रिया अग्रे वर्धापितास्ति। ह्यो मन्त्रालये आयोजिते पत्रकार मेलने मन्त्री त्रिपाठी नेपाले टीकाकरणम् आनेतुम् रूस भारत संयुक्त अरब इमिरेट्स प्रवृत्तिभिः देशै सह आवश्यकः सम्पर्कः विमर्शनञ्च विद्यमानस्तः इति अज्ञापयत्। यथासमयम् टीकाकरणस्य प्रयोगाय निश्चिताः भवितुम् अनुरुन्धानो मन्त्री त्रिपाठी टीकाकरण केन्द्राणाम् सञ्चालनस्य भण्डारणस्य परिवहनस्य च सन्दर्भे सर्वकारः तत्परावस्थायम् वर्तते इत्यतः टीकाकरणस्य आनयनस्य सप्तानाम् दिनानाम् अभ्यन्तरे टीकाकरणकार्यम् प्रारप्स्यते इति अबोधयत्। नेपाले ह्य अतिरिक्ताः सप्तविंशत्यधिक पञ्चशतम् जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। एतदनु ह्यस्तनावधि नेपाले कोरोना मुक्तानाम् जनानाम् समग्र संख्या लक्षद्वयम् अष्टापञ्चाशत् सहस्राणि अष्टाष्ट्यधिक नवशतम् च प्राप्तास्ति। ह्य आराष्टम् पञ्चसहस्राणाम् नवाधिक शतद्वयस्य च निदर्शनानाम् पीसीआर विधिना परीक्षणे विहिते अष्टाशीत्यधिक शतचतुष्टय जनेषु कोरोना संक्रमणम् पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। ह्यस्तनावधि आराष्टम् सहस्रचतुष्टयम् त्रिसप्तत्यधिक शतत्रयम् च कोरोना विषाणु सक्रिय संक्रान्ताः जनाः सन्ति। ह्य कोरोना संक्रमणेन दश जनाः मृताः। तदनु ह्यस्तनावधि नेपाले संक्रमणेन मृतानाम् जनानाम् समग्र संख्या सहस्रम् सप्तविंशत्यधिक नवशतम् च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। जुम्ला पदस्य पाताराशी ग्रामपालिकया पञ्चानम् शय्यानम् कोविड अस्थायी चिकित्सालयः सञ्चालितो वर्तते। प्रशासनस्य तथ्याङ्कानाम् अनुसारेण जुम्ला जनपदे द्वादश संक्रान्ताः जनाः सन्ति। उपप्रधानमन्त्री नेकपा दलस्य सचिवालय सदस्यश्च ईश्वर पोखरेलः नेकपादलम् दुर्बलयितुम् षड्यन्त्रम् विद्यमानम् अस्तित्यतः तत् प्रतिकर्तुम् आत्मभि प्रवर्तितम् इति ज्ञापयति। नेकपादलस्य बाराशाखया ह्य कलैयास्थाने आयोजिताम् जनसभाम् सम्बोधयन् उपप्रधानमन्त्री पोखरेलः अगदत् दलैकतायाः समये जनतायाम् दृष्टा प्रसन्नता सम्प्रति नैराश्य परिणतास्ति। कार्यक्रमे नगरीय विकास मन्त्री प्रभु शाह अभाषत प्रधानमन्त्रिणा केपी शर्मा ओलिना नहि अभिप्सया परम् बाध्यो भूत्वा नूतन जनादेशाय संसद विघटितास्ति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य स्थायी समितेः सदस्य ऊर्जो जलस्रोत सिंचन मन्त्री च टोप बहादुर रायमाझी कथयति संसदो विघटनम् बाध्यतायाः परिणामो वर्तते। ह्य तनौ जनपदस्य दमौली स्थाने आयोजिते कार्यकर्तृ मेलने मन्त्री रायमाझी अगदत् दलस्य अभ्यन्तरे एव सर्वकार विरोधिनाम् क्रियाकलापानाम् वर्धनस्य कारणात् संसदम् विघटय्य निर्वाचनाय गन्तव्यम् अभूत्। लुम्बिनी प्रदेशस्य मुख्यमन्त्री शंकर पोखरेलः संसदो विघटनम् लोकतन्त्रस्य संविधानस्य च रक्षायै विहितमिति निश्चिनोति। मुख्यमन्त्री पोखरेलः ह्यो बांके जनपदे आयोजिते कार्यक्रमे सर्वकारेण कार्यसम्पादनम् अपेक्षितम् सदपि दलस्य अभ्यन्तरादेव परिवेष्टनम् विहितम् प्रधानमन्त्रिणो विरूद्धे अविश्वासस्य प्रस्तावस्य आनयनाय च प्रयतितमिति हेतुः संसद विघटितेति अतर्कयत्। गृह मन्त्रालयन आगामिनो वैशाख मासस्य सप्तदश सप्तविंशेच दिवसयो सम्पत्स्य मानस्य प्रतिनिधिसभाया सदस्यानां निर्वाचनस्य पूर्वकार्य प्रवर्तनाय सुरक्षा निकायः निर्दिष्टाः वर्तन्ते। गृहमन्त्रिणो रामबहादुर थापा विदस्य अध्यक्षतायां ह्यः सिंहप्रासादे उपविष्टेन उपवेशेन एवं निर्दिष्टाः सन्ति। उपवेशे गृहमन्त्री थापा राष्ट्रं निर्वाचनं प्रति केन्द्रितम् अस्तित्यतः सुरक्षायाः आवश्यक पूर्वकार्याय प्रवर्तयितुं सुरक्षा निकायान् निरदिशत्। गृहमन्त्री रामबहादुर थापा सेना समायोजनस्य बेलायं नेपालस्य कृते संयुक्त राष्ट्र संघीय शिष्टमण्डलस्य प्रमाणीकरणे नागतानां बहिर्गमने वर्तितानां तात्कालिक नेकपा माओवादी दलस्य योद्धृणां याचनां सम्बोधयितुं कार्यदलं निर्मीयते इति ज्ञापयति। गृहमन्त्रालय ह्यो बहिर्गत जनमुक्ति सेना नेपाल संघर्ष समितेः ज्ञापनपत्रं गृह्णन् गृहमन्त्री थापा समित्या उपस्थापितां याचनाम् अधीत्य कार्यदलं निर्माय सम्बोधयिष्यते इति आश्वासयत्। उद्योग वाणिज्यापूर्ति मन्त्री लेखराज भट्टः भाषते मूल नेतृत्वस्य सबलीकरणाय रणनीतिर्निर्माणे संलग्नैर्भाव्यम्। नेपाल कम्युनिष्ट पार्टी नेकपा दलेन कञ्चनपुरस्य महेन्द्रनगरे ह्य आयोजिते विस्तारितोपवेशे असौ अवदत् नवीनेतिहासेन चिन्तनेन कार्यशैल्या च दलस्य अग्रे वर्धापनस्य समयः समागतो वर्तते इति समाचारः।